सञ्जाग्रवद्भ्यर्जतमानयुध्यतेतमेतमूनायुधयम् निलस्पदे विश्वस्य होता हविषोपरेण्योभिभुर्विभावा सुषखा सकीयते सदर्शन श्रीरजीर्गृहे गृहे वने वने शिश्रिये तत्पवीरिव जनम् जनम् जन्यो नाति मन्यते विषाक्षेति विश्वो विषम् विषम् सुदक्षो रक्षैः क्रतो नाति सुक्रतुरग्ने कविः काव्ये नाति विश्ववित् स सर्वसूनाम् क्षयसि त्वमेकयुज्यावाचराणि पृथिवी चमुष्यतः प्रजायनग्नेतभजोनि मृत्विषमिलायास्मते घृतमन्तमासदः आदेति मित्रपुषसा विवेतयो नेपथः सूर्यस्येव रश्मयाः तपस्विनो वर्णस्येव विद्युतश्चित्रास्तिगित्रपुषसान्न केतवाः यतोषधीरभिदृष्टोऽवनानि कबलि स्वयम् दीनुषे अन्नमास्ये तमोषधीर्दशिरे गर्भमृत्विजम् तमापो अग्निम् जनयम् तमातराः तमित्समानम् वनिनश्च वीरुधोऽन्तर्वातीश्च सुपते च विश्वः पातोपधूतयिषितोपसाङ्गनो दृषयदन्नामे वीषद्विदिष्ठसे आदेयतम् ते रक्षोजसा पृथक् श्रद्धाम् जज्ञे अजरानिषक्षतः मेधाकारम् विदधस्य प्रसाधनमग्निम् होतारम् प्रतिभूतमम्भतिम् मानमित्तमिन्महेण तेनान्यन्वत् स्वामिरत्र वृणते त्वाजभोहोदारमग्ने विदथेषु वेधसाः यद्देवयम् तो दधति प्रजांसिते हविष्मन्तो मनवो वृत्तवलिगिणः तवाग्ने होत्रम् तव पोत्रमृत्विजम् तव नेष्ट्रम् त्वमग्निधृतायतः तव प्रशास्त्रम् त्वमध्वरीयसि ब्रह्मादासि गृहपतिश्च नोदमे यस्तुभ्यामग्ने अमृताजमच्च समिधादास दुतवा हविष्कृति तस्य होता भवसि यासि दूत्या अमुपब्रूषे यतस्य ध्वरीयसि इमा अस्मै मतयो वाचो अस्मदाङ्गचो गिरस्वच्युतयः समग्मत सूयभोमस वेदातवेदसे वृद्धासु जिद्वर्धनो यासु चाकनत् इमाम् रत्नाय सुष्टुतिम् नवीयसीम् भोजे जामस्मावुषते शृणोतु नः भूयान्तरा हृद्यस्य निःस्पृशे जाये भवत्यावुषति सुभासाः यस्मिन्न स्वासर्षभास भुक्षणो भसा मेषावसृष्टा स आहूताः ीलालपे सोमवृष्टाय वेदसे हृतापतिम् जनये चारु भग्नये अभाव्यग्ने हविरास्ये ते सुजीव घृतम् संवीव सोमाः वाजसनिम् रजिमस्मे सुवीरम् प्रशस्तम् धेहि यशसम् बृहन्तम्